अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः निम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे
ज्योतिश्च मे
शुभश्च मे प्राणश्च मे बाणश्च मे ज्ञानश्च मे सुश्च मे चित्तञ्च महाधीतञ्च मे वाच्च मे मनश्च मे चक्षुश्च मे
श्रोत्यञ्च मे
रक्षश्च मे बलञ्च मभोजश्च मे सहश्च महायुश्च मे
जराच
महात्मा च मे ोश्च मे सम्मत मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंश च मे शरीराणि च मे ज्येष्ठम् च महाधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मे अम्भश्च मे
नेमा
च मे महिमा च मे वरिमा च मे प्रथिमा च मे वष्मा च मे द्राघुजा च मे वृद्धम् च मे वृद्धिश्च मे
सत्यम् च मे
श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे
जनिष्यमाणम् च मे
सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुवसम् च मरुद्धम् च मरुद्धिश्च मे गुप्तम् च मे गुप्तिश्च मे मतिश्च मे सुमतिश्च मे सन्त मे वयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे
सौमनसश्च मे
भद्रम् च मे श्रेयश्च मे वस्त्रश्च मे रसश्च मे
भगश्च मे
द्रविणम् च मे
दन्ता च मे
धन्ता च मे क्षेमश्च मे धृजश्च मे
विश्वम् च मे
महश्च मे संविच्च मे
ज्ञात्रम् च मे
सोश्च मे
सोश्च मे
क्षीरम् च मे रजश्च मरुदम् च मे
मृदम् च
मे लक्ष्मम् च मे
नामयच्च
मे जीवादुश्च मे
दीर्घायु
भूर्च मे सोमृदा च मे वजश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सवेदुश्च मे
कृषिश्च मे
वृष्टिश्च मे जयुक्तम् च मोद्भिद्यम् च मे रजश्च मे राजश्च मे
पुष्कम् च मे
पुष्पिश्च मे विभुज मे प्रभुज मे बहुज मे भोजश्च मे
पूर्णम् च मे
पूर्णधरम् च मे
क्षिश्च
मे गोजवाश्च मे अन्नम् च मे क्षुच्च मे मेहजश्च मे जवाहाश्च मे माषाश्च मे दिलाश्च मे मुद्राश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे
नवश्च मे
श्यामाकाश्च मे नैवाराश्च मे अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शीसम् च मे
त्रभुश्च मे
श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च
मवोषधयश्च
मे कृष्णपक्ष्यम् च मे कृष्णपक्ष्यम् च मे ग्राम्याश्च मे वशमारण्याश्च विज्ञानकल्पम् ताम् युक्तम् च मे वित्तिश्च मे भूतम् च मे भोजश्च मे वसत मे वसतिश्च मे कर्म च मे ष्ट मे अर्थश्च मयमश्च मरिदुश्च मे गतिश्च मे अग्निश्च मरिन्द्रश्च मे सोमश्च मरिन्द्रश्च मे सविता च मरिन्द्रश्च मे सरस्वती च मरिन्द्रश्च मे भूषा च मरिन्द्रश्च मे बृहस्पतिश्च मरिन्द्रश्च मे मित्रश्च मरिन्द्रश्च मे वरुणश्च मरिन्द्रश्च मे
त्वष्टा च मरिन्द्रश्च मे धाता च मरिन्द्रश्च
मे विष्णुश्च मरिन्द्रश्च मे
श्रियो च मरिन्द्रश्च मे
मरुदश्च मरिन्द्रश्च
मे
विश्वे च मे देवारिन्द्रश्च मे पृथिवे च मरिन्द्रश्च मे
अन्तरिक्षम् च मरिन्द्रश्च मे
द्यौश्च मरिन्द्रश्च मे दिशश्च मरिन्द्रश्च मे मोर्धा च मरिन्द्रश्च मे
प्रजापतिश्च
मरिन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंसुश्च मे
दर्यामश्च म
ऐन्द्रवाजवश्च मे नेत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म
आग्रहणश्च मे
वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मे
दिव्याश्च
म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे
मरुत्पदीराश्च मे
माहेन्द्रश्च म आदित्यश्च मे
सावित्रश्च मे
सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे
आयुर्वधनश्च मे
इन्द्रस्तमे बलिष्ठमे वेदिष्ठमे धृष्टजास्तमे सुजस्तमे तमसास्तमे ग्रावाणस्तमे स्वरवस्तमौ भगवास्तमे चक्रमणे तमे ब्रोनकलसस्तमे वायुज्ञानजमे ओजभिच्चम आधवनीलस्तम आग्नेध्वंजमे हविध्वानञ्जमे ग्रहास्तमे हृदस्तमे प्रोढाशास्तमे पचतास्तमे भद्रसस्तमे स्वगाकारस्तमे अग्निष्टमे धर्मस्तमे कस्तमे सूर्यस्तमे प्राणस्तमे
स्तमेधस्तमे
पृथिवीचमे दिदिष्टमे दिदिष्टमे यौष्टमे शक्वरीरङ्गुरज्योतिषस्तमे यज्ञेन कल्पं दावृच्छमे सामचमे स्तोमस्तमे ऋजुस्तमे दीक्षाचमे तपश्च मधुतुष्टमे प्रपञ्चमे होरात्रयोर्वृष्ट्या बृहद्रथं करे चमे यज्ञेन कल्पेता गर्भास्तमे वत्सास्तमे त्रिविष्टमे त्रिवीचमे द्विवाक्षमे द्वितौहीचमे पञ्चाविष्टमे पञ्चावीचमे त्रिवत्सस्तमे त्रिवत्सातमे द्विवाक्षमे दुर्लौहीचमे वष्ठवाच्यमे वष्ठौहीचम वृक्षाचमे वषाचमर्णभस्तमे रेहच्यमे गर्भाञ्चमे धेनुश्चम आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां ज्ञानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता विश्रात्रैर्यज्ञेन कल्पता
मनोयज्ञेन कल्पता
वाग्यज्ञेन कल्पता महात्मायज्ञेन कल्पता यज्ञोयज्ञेन कल्पता एकादशमे त्रिसृष्टमे पञ्चदशमे सप्तदशमे नवदशमदेकादशतमे
त्रयोदशतमे पञ्चदशतमे
सप्तदशतमे नवदशतमदेकविंशतिष्टमे त्रयोविंशतिष्टमे पञ्चविंशतिष्टमे सप्तविंशतिष्टमे नवविंशतिष्टमदेकत्रिंशत्तमे त्रयस्त्रिंशत्तमे चतस्रष्टमे अष्टौचमे द्वादशतमे षोडशतमे विंशतिष्टमे चतुर्विंशतिष्टमे अष्टाविंशतिष्टमे द्वात्रिकं सच्चमे षट्त्रिकं सच्चमे चत्वारिकं सच्चमे चतुश्चत्वारिकं सच्चमे अष्टाचत्वारिकं सच्चमे वाजश्चप्रथमश्चाभिजश्च क्रतुश्च सुवश्च मूर्धाचौजस्नेहश्चाङ्गाजनश्चाङ्गश्च भौवनश्च भुवनश्चाधिपतिश्च वाजो नः सप्त प्रतिषष्टतस्रो वामनावतः वाजो नो विश्वैर्देवैर्धनसाता विहावतु विश्वे अद्य मरुतो विश्वभूते विश्वे भवन् वर्णरसमिद्धाः विश्वे नो देवा अवसाकमं तु विश्वमस्तु द्रविणं वाजो अस्मे वाजस्य प्रसमं देवार्थैर्जाताहिरण्यैः अग्निरिन्द्रो बृहस्पतिर्मरुतः सोमपीतये वाजे वाजे वदवाजिनो नो धनेषु विप्रामृतार्थज्ञाः वाजः पुरस्तादुतमध्यतो नो वाजो देवागुं मृदुभिः कल्पयाति वाजस्य प्रसवो नन्दमेति विश्वाचावाजपतिर्भवेयम् वजपोषदेषु वजो दिव्यं धनिक्षेपयोधाम् वयस्वरे पुरुषः सन्तु मह्यम् सम्मासृजामि वजसा कृतेन सम्मासृजाम् नपवोषधेभिः सोऽहं वाचकम् सनेयमग्ने न दोषा सा समनसा विरूपे ध्यापयेते शिशुमेककम् समीची द्यावाक्षामारुक्मो अन्तर्विभाति देवा अग्निम् धारयन् द्रविणोदाः समुद्रोऽसि नभस्वानार्द्रदानुःशम्भोर्मजोभोरभिमावाहि स्वाहा मारुतोऽसि मरुताङ्गणशम्भोर्मजोभोरभिमावाहि स्वाहा वसुलसि दुवस्वाञ्छम्भोर्मजोभोरभिमावाहि स्वाहा अग्नियुनज्भिषमसा घृतेन दिव्यगम् सुवर्णम् वयसा बृहन्तम् तेन रजम् पतेम ब्रह्मस्य पिष्टपगुम् सुवोरुहाणा अधिनाकमुत्तमे योगे वक्षा वजरौपतत्रिणो याभ्यागुम् रक्षागस्य पहग्स्यग्ने ताभ्याम् पतेम सुकृतामुलोकै यत्रर्षजः प्रथमजाजे पुराणाः त्रिदश समुद्रजो निरम् दुर्दक्षस्येन ऋतावाः हिरण्यवक्षस्य गुणोऽभिरण्यर्महान् सहस्ते आनिषत्तः नमस्ते अस्तु मामाहिगुंसेर्विश्वस्य मूर्धन्न च तिष्ठसि श्रितः स समुद्रे ते हृदजमन्तरा जब्जा वा पृथिवी भुवनेष्वर्पिते बुध्नो दत्तो दधिम्भिन्दरिवः पर्जन्यादन्तरिक्षा पृथिव्यास्ततो नो विश्वावदा दिवो मोर्धासि पृथिव्यानाभिरोर्गवामोषधीना विश्वादिशर्म सप्रथा नमस्पथे येन ऋषजस्तपसा सत्रमासतेऽन्धाना अग्निम् सुमराभरन्तः अस्मिन्नहन्यदधेनाके अग्निमेतय्यमाहुर्मनवस्तेर्नवलिखिषम् तम् पत्नीभिरनुगच्छेम देवाः पुत्रैर्भ्रातृभिरुतवा हिरण्यैः नाकम् गृह्णाना सुहृदस्य लोके तृतीये पृष्ठे अधिलोचने दिवः मा वाचो मध्यमर्हद्भुरण्यरजमग्निः सत्पतिश्चेकितानः पृष्ठे पृथिव्यानिहितो दविद्युतकथस्पदम् कृणुते ये पृथन्यवः अजमग्निर्वेदतमो वयोधा सहस्रयो दीप्यतामप्रयुच्छन् निभ्राजमानः शरीरस्य मध्य उपप्रजात दिव्यानि धाम सम्प्रच्य मध्यमनु सम्प्रजाताग्ने पथो देवजानान् कृणुध्वम् अस्मिन् सहस्थे अध्युत्तरस्मिन् विश्वे देवागयमानश्चसीतता येन सहस्रम् वहसि येनाग्ने सर्वमेतसम् तेनेमञ्जन्मा वहदे भजाजोजमुत्तमः तद्वध्यस्वाग्ने प्रतिजागित्येन विष्टापूर्ते सयुन्धृते ताकजम् च पुनःस्वापितर युवानमन्वादागुं सेत्वगितम् तु मेतम् अयम् तेनो निरृत्विजो यतो जातो अरोचथाः अञ्जानन्नग्नारोहाथा नो वर्धया रजिम् ममाग्ने वर्जो विहवेष्वस्तु वयम् त्वयम् धानास्तनुपम् वृषेम मह्यन्नमन्तामृतिशस्यतस्रस्त्वयाध्यक्षेण वृतनाजयेम मम देवा विहवे सन्तु सर्वजिन्द्रावन्तो मरुजो विष्णुरग्निः ममान्तरिक्षमुरुगोपमस्तु मह्यम् वादः भवताम् कामे अस्मिन् मयि देवा द्रविणमायजन्ताम् मय्यासीरस्तु मयि देवहूतिः दैव्याहोतारामनिषन्तपूर्वेरष्टास्यामतनुवासुवीराः मह्यम् गजन्तु ममजानि हविजागोतिः सत्या मनसो मे अस्तु येनो मालिकाङ्गतमक्षनाहम् विश्वे देवासो अधिवोचता मे देवे षडुर्वे ऋणः कृणोद विश्वे देवास इह वीरयध्वम् माहास्महि प्रजामातनो धर्मानधामद्विहते सोमराजम् अग्निर्मन्यम् प्रतिनृतम् पुरस्तादद्धो गोपाः परिपाहिनस्त्वम् प्राच्यम् च यन्दुनियुतः पुनस्ते मेषाम् चित्तम् प्रबुधा विनेशत् धाताधातृणाम् भुवनस्य यस्वदेवगम् सवितारमधिमादिशाहम् इमै यज्ञमश्विनो भा बृहस्पतिर्देवाः पाहाम् दुहिरमानन्यर्थात् रुद्रजा नो महिषः शर्म जगम् च तस्मिन् हवे पुरुहोदः पुरुक्षो सः प्रजाये हर्यश्वमृढजेन्द्रमानो रीरुषोमापराधाः येन सपद्मा अपते भवन्तिन्द्राग्निभ्रामपबाधामहेतान् कुसवो रुद्रा आदित्या उपरि स्पृशम् मोग्रम् चेत्तारमधिराजमग्रम् अर्वाञ्चमिन्द्रमुतो हवामहे योगोजिद्धनजिदस्वजिद्यः इमन्नो यज्ञम् विहवेजुषस्वास्य कुर्मो हरिवो मे दिनम् त्वा अग्नेर्मन्वे प्रथमस्य प्रचेतसोऽयम् पाञ्चजन्यम् बहवः समिन्धते विश्वस्याम् विशुक्रविशिवागुम् समेमहे सनोमम् सत्त्वगुम् हसः यस्येदम् प्राणम् निमिषद्यदेतजस्त जातम् जनमानम् च केवलम् स्तोम् यज्ञम् नाचतादाहवे सनोमम् सत्त्वगुम् हसः इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्नस्तोमा उपमामुपागुः यो दाशुषस्य कृतो हवमुपगम् दासनामम् चत्वगम् हसः सङ्ग्रामम् नयति संवशेदुधेजः पुष्टानसगम् सृजति त्रयाणि सौमेन्द्रम् नाथिराजाहवे सनामम् चत्वगम् हसः मन्येवाम्यद्रावरुणादस्य वित्तगम् सत्यौदसादगम् हणायम् मुदेथे या राजानगम् सरथय्याथमुग्रातानो मुञ्चतमागसः గోపాగుంబరస్మిస్తర్మామిస్తరం రముభయాతి దూషజన్ స్థౌమిత్రామరుణానాథితోజోహవేమితౌనోముంచతమాగసౌమిశ్వస్తమరిభోమతస్థౌనోముంచతమాగసౌమశ్రేష్ఠానాశుకోదేవయోధర్మే అస్థిరం స్థౌమి వాలిగుం సవితారన్నాథితోజోహవేమితౌనోముంచతమాగస రచేదమౌ రచే నామ బహూతజయ సుఖంగమిష్టౌ సుగమేరస్వైర్వాం దేవౌ దేవేష్మనసితమోజస్తౌ నోముంచతమాగసాతం వహతు సూర్యాస్త్రిచక్రేణ సగుంసతమిక్షమానౌ స్థౌమి దేవాశ్వినౌ నాశితోజోహవేమితౌ నోముంచతమాగస మరుదామన్వే అధినోగ్రవంతు ప్రేమాం వాచం విశ్వామవంతు విశ్వే ేమానోతేమోముంచేన సహ విగ్మమాయుధం వేడితకం సహస్వద్దివ్యగం శబ్దకృతనాశు విష్ణు సౌమిదేవాం మరుతో నాశోజోహవేమితేనోముంచేన సహ దేవానాహం మన్వే అధినో బ్రువంతు ప్రేమాం వాచం విశ్వామవంతు విశ్వే ఆశో నభవే సృజమానోతేనోముంచేన సహ యదిశోచతి పౌరుషే జైన దైవ్యేన స్థౌమి విశ్వాం దేవాన్నాథితోజోహవేమితేనోముంచేన సహ అనుమాజ్ఞానమదిరం విదనుమతేర్పం వైశ్వానరో నూత్యాపృష్టో దివి యే అప్రసేతామితేజోజోభిరుజే ప్రతిష్టే అభవతాం వసూనా స్థౌమిద్యావాపృథివీనాథితోజోహవేమితేనోముంచతమగుంహసః పూర్వీరోదసే పరిపక్ష్ణోక్షేత్రస్ పత్నీ అధినో బ్రూజాతం స్థౌమిద్యావాపృథివీనాథితోజోహవేమితేనోముంచతమగుంహసే భజం వరుషత్రాజమిష్ఠా విద్వాగుంసస్య కృమాగచ్చనాగస్మాగం అదితేరనాగావ్యేనాగుంసి శిష్యసోమిష్మగగ్నే యథాహతద్వసవో గౌర్యంచిత్వజిషితామముంచతాయత్రా ేవాత్మస్మత్ప్రముంఛావ్యగుంహ్రాతాయజ్ఞే ప్రతరాహాయుః హరిః ఓ